अथ चतुर्थः पादः धातुसम्बन्धे प्रत्ययाः क्रियासमभिहारे लोट् लोटो हि स्वौ वाच तद्ध्वमोः समुच्चयेऽन्यतरस्याम् यथा विध्यनुप्रयोगः पूर्वस्मिन् समुच्चये सामान्यवचनस्य छन्दसि लुङ् लङ् लिटः लिङर्थे लेट् उपसंवादाशङ्कयोश्च तुमर्थे से सेन से सेन् क्से कसेनध्यै अध्यैन् कध्यै कध्यैन् षध्यै षध्यैन् तवैतवेन् तवेनः प्रयैरोहिष्यै अव्यथिष्यै दृशे विख्ये च शकिणमुल्कमुलौ ईश्वरेतोऽसुन्कसुनौ कृत्यार्थे तवैकेन्केऽन्यत्वनः अवचक्षे च भावलक्षणे स्थेऽङ्क्रीवदिचरिहुतमिजनिभ्यस्तोऽसुन् सृपितृदोः कसुन् अलङ्खल्वोः प्रतिषेधयोः प्राचाङ्क्त्वा उदीचाम् माङो व्यतीहारे परावरयोगे च समानकर्तृकयोः पूर्वकाले आभीक्ष्ण्येण मुल्च न यद्यनाकाङ्क्षे विभाषाग्रे प्रथमपूर्वेषु कर्मण्याक्रोशे कृयः खमुय स्वादुमिणमुल अन्यथैवम् कथमित्थंसु सिद्धा प्रयोगश्चेत् यथा तथयोरसूया प्रतिवचने कर्मणि दृशिविदोः साकल्ये यावतिविन्दजीवोः चर्मोदरयोः पूरेः वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् चेलेक्नोपेः निमूलसमूलयोः कषः शुष्कचूर्णरूक्षेषु पिषः समूलाकृतजीवेषु हन्क्रीग्रहः करणे हनः स्नेहने पिषः हस्ते वर्तिग्रहोः स्वे पुषः अधिकरणे बन्धः संज्ञायाम् कर्त्रोर्जीवपुरुषयोर्न शिवहोः ऊर्ध्वेषुषिपूरोः उपमाने कर्मणि च कषादिषु यथा विध्यनुप्रयोगः उपदंशस्तृतीयायाम् हिंसार्थानाम् च समानकर्मकाणाम् सप्तम्याम् चोपपीडरुधकर्षः समासत्तौ प्रमाणे च अपादाने परीप्सायाम् द्वितीयायाम् च स्वाङ्गे ध्रुवे परिक्लिश्यमाने च विशिपतिपदिस्कन्दाम् व्याप्यमाना सेव्यमानयोः अस्य ऋतृशोः क्रियान्तरे कालेषु नाम्न्यादिशिग्रहोः अव्यये यथाभिप्रेताख्याने क्रियः क्त्वा नमुलौ तिर्यच्यपवर्गे स्वाङ्गे तस्प्रत्यये क्रुभ्वोः नाधार्थप्रत्यये च्व्यर्थे तूष्णीमिभुवः अन्वच्यानुलोम्ये शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् पर्याप्तिवचनेष्वलमर्थेषु कर्तरिकृत् भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा लःकर्मणि च भावे चाकर्मकेभ्यः तयोरेव कृत्यक्तखलर्थाः आदिकर्मणि क्तः कर्तरि च गत्यर्थाकर्मकश्क्लिशशींस्थासवसजनरुहजीर्यतिभ्यश्च दाशगोघ्नौ सम्प्रदाने भीमादयोपादाने ताभ्यामन्यत्रोणादयः क्तोऽधिकरणे च द्रव्यगतिप्रत्यवसानार्थेभ्यः लस्य तितात्मने पदानां टेरे थासस्य लिटस्तझयोरे शिरेच परस्मै पदानां नलतु सुस्थलतु सणल्वमाः विदोलटो वा ब्रुवः पञ्चानामादित आहो ब्रुवः लोटो लंग्वत एरुः सेर्ह्यपिच्च वाच्छन्दसि मेर्निः आमेतः सवाभ्याम् वामौ आडुत्तमस्य पिच्च एत ऐ लेटो डाटौ आत ऐ वैतोऽन्यत्र इतश्च लोपः परस्मैपदेषु स उत्तमस्य नित्यङितः इतश्च तस्थस्थमिपां तान्तं तामः लिङस्सीयुट् यासुट् परस्मैपदेषूदात्तो ङिच्च किदाशिषि झस्यरन् इटोत् सुट्टिथोः झेर्जुस् सिजभ्यस्तविदिभ्यश्च आतः लङशाकटायनस्यैव द्विषश्च तिंशित् सार्वधातुकम् आर्धधातुकम् शेषः लिट्च लिङाशिषि छन्दस्युभयथा इति चतुर्थः पादः इति तृतीयोऽध्यायः।